सर्वेषां स्वागतं ध्येयमन्त्रेण आरम्भं कुर्मः. अस्तु, पठतु भगिनि गोपिका भगिनि.
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्. संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहं, संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्. संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्. हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. हरिः ॐ.
धन्यवादः भगिनी, बहु बहु स्पष्टम् आसीत्. अस्तु, अत्र स्वागतम्. सो अत्र वयम् अभ्यासदर्शिनी प्रति गच्छामः, दर्शिनीं प्रति गच्छामः. वयं गतवर्गे किं पठितवन्तः? भविष्यत्कालरूपं, खलु? भविष्यत्कालरूपं पठितवन्तः. अस्तु, एकवारं विशेषक्रियापदानां रूपं, पदानां षष्टि बहुवचनं, पदानि प्रथमा द्वितीया बहुवचनं. सो अत्र गच्छति इति पदं गमिष्यति, गमिष्यन्ति साधारणक्रियापदं, पठति पठिष्यति पठिष्यन्ति, लिखति भिन्न किञ्चित् भिन्नरूपं लेखिष्यति लेखिष्यन्ति, स्थापयति. सो अत्र यति इति वर्तमानकाले अस्ति चेत् भविष्यत्काले इष्यति इति भवति. स्थापयति स्थापयिष्यति, पूजयति पूजयिष्यति, प्रक्षालयति प्रक्षालयिष्यति इति साधारणतया भवति. करोति करिष्यति, भिन्नरूपं करिष्यति करिष्यन्ति. ददाति बहु भिन्नरूपं दास्यति दास्यन्ति. त्यजति इतोपि बहु भिन्नरूपं त्यक्ष्यति. उदाहरणतः पृच्छति प्रक्ष्यति, पश्यति द्रक्ष्यति, पिबति पास्यति दास्यतिवत्, ददाति दास्यति, पिबति पास्यति. अनन्तरं जानाति न्यास्यति, तदपि भिन्नरूपमेव. शृणोति श्रोष्यति, नयति नेष्यति, तिष्ठति स्थास्यति स्थास्यति. वयं कथं जानीमः रूपं किम् इति? एकमस्ति अभ्यासेन एव मनसि तिष्ठति, नो चेत् यथावत् गच्छति एव. अन्य अस्ति उदाहरणार्थं पिबति इति वर्तमानकालरूपमस्ति. धातु अस्ति पा धातु पा. एवमेव न्यास्यति न्या धातु इति भवति. तिष्ठति स्था धातु धातु अस्ति स्था धातु इत्युक्ते क्रियापदस्य मूलरूपम् इति वदामः. क्रियापदस्य मूलरूपस्य नाम अस्ति धातु इति. अस्तु, वयम् एतत् कृतवन्तः वा? न खलु?
आं भगिनि.
आं भगिनि.
अस्तु, उत्तमम्. एतत् कृतवन्तः वा? अस्तु उत्तम, धन्यवादः. त्रिचत्वारिंशत्तम अभ्यासम् उत्तमम् उत्तमं महोदय. ओके अस्तु, श्वः कन्दुकक्रीडा स्पर्धा भविष्यति. श्रवणः एकस्य पक्षस्य नायकः. नायकः इत्युक्ते
क्याप्टन्.
क्याप्टन् अस्तु, क्याप्टन् या. श्वस्तन, सो अत्र श्वस्तन इति एकपदमेव, सो अत्र अत्र हैफन् अस्ति, पश्यतु. श्वस्तन किम्? श्वस्तनकार्यक्रमान्, कार्यक्रमान् विभक्तिका द्वितीया बहुवचनम्. उत्तमं, द्वितीया बहुवचनं. सो अत्र श्वस्तनकार्यक्रमान् एकमेव पदम्, सो अत्र द्वितीया विभक्ति भवति, परन्तु प्रथमा विभक्ति अपि भवितुम् अर्हति, तृतीया विभक्ति, चतुर्थी विभक्ति, किमपि. श्वस्तनकार्यक्रमः कुत्र भवति? प्रथमा विभक्ति. श्वस्तनकार्यक्रमान् अत्र द्वितीया विभक्ति दृश्यते. श्वस्तनकार्यक्रमः इति अस्ति, तृतीया विभक्तिरूपं कथं भवति? कार्यक्रमेण वयम् आनन्दम् अनुभविष्यामः इति अहं जानामि. कार्यक्रमेण. चतुर्थी विभक्ति कथं भवति?
कार्यक्रमाय
अथवा कार्यक्रमार्थं, कार्यक्रमाय सिद्धतां करोतु. गेट् रेडि, सिद्धतां करोतु, अभ्यासं करोतु. एवमेव श्वस्तनकार्यक्रमात्, श्वस्तनकार्यक्रमस्य नाम किं? श्वस्तनकार्यक्रमे किं किम् अस्ति, किं किं भागः अस्ति, नृत्यभागः, गीतभागः इत्यादय. अस्तु, कांश्चन सः चिन्तितवन्तः. अत्र कांश्चन इति काम्, कार्यक्रमान् काम्, काम् इति पदस्य च चित् अथवा चन योग्य कांश्च इति सन्धि भवति. कार्यक्रमान् कान् इति सः चिन्तितवान्, कान् चिन्तितवान्. ते च अधः निर्दिष्टाः सन्ति, निर्दिष्टाः इत्युक्ते सूचिताः सन्ति. तत् आधारेण, अत्रापि सन्धिविषये अस्ति, तदाधारेण, तत् आधारेण. अत्रापि एकपदम् एव, एकपदम् इति भवति चेत् पृथक् पृथक् विभक्तिरूपं न भवति, परन्तु पृथक् पदम् अस्ति चेत्, पृथक् पृथक् पदानि सन्ति चेत् अथवा पदे स्तः चेत् रूपाणि भवति, विभक्तिरूपाणि भवति. सो अत्र तत् आधारेण, सो अतः तत् इति पदं भिन्नपदं, पृथक् इति अस्ति चेत् कथं भवति रूपं? तत् इति पदस्य तृतीया विभक्तिरूपं कथं भवति? आधारे वदतु पुनः. तेन आधारेण अथवा तदाधारेण, एकमेव पदमस्ति चेत् तदाधारेण अथवा तेन आधारेण. केन आधारेण?
तेन आधारेण.
तेन इत्युक्ते अधः सूचिताः सन्ति खलु, तेन आधारेण. कार्यक्रम कः किं करोति अथवा किं किं करणीयम् इति, तेन आधारेण अधः
भगिनि. पृथक् पृथक् अर्थं किं?
पृथक् पृथक् इत्युक्ते अत्र तत् आधारेण इति अहं लिखामि चेत्, अहम् एकवारं लिखामि, तत् अस्ति इति अहं लिखामि चेत् पदद्वयम् अस्ति सो अतः पृथक् पृथक् लिखामि
सेपरेट्लि
सेपरेट्लि
अस्तु भगिनि धन्यवादः
सो अहं मिलित्वा लिखामि चेत् तदा तदा इट् बिकम्स् लैक् दिस् तदस्ति तदस्ति सो अत्र तावदेव अस्ति तत् आधारेण अथवा तेन आधारेण पृथक् लिखामः चेत् तेन आधारेण अथवा तदाधारेण वाक्यानि रचयत अस्तु प्रथमं प्रथमवाक्यस्य उदाहरणम् अत्र अस्ति प्रथमं किम् अस्ति ते ते इत्युक्ते अन्यपक्षीयाः सो वि हाव् टु टीम् दे अन्यपक्षीयाः वयम् सो अत्र अन्यपक्षीयाः इत्युक्ते अन्ति इति भवति गमिष्यन्ति पठिष्यन्ति इति वयम् इति अस्ति चेत् गमिष्यामः अन्तिमरूपं मह इति भवति अत्र ते अस्ति चेत् अन्ति यन्ति इति भवति अस्तु प्रथमं किं भवति ते दशवादने आगमिष्यन्ति अत्र धातुरूपम् अस्ति धातु इत्युक्ते क्रियापदस्य मूलरूपं मूलरूपस्य नाम अस्ति धातु गम् धातु आगम् आगमिष्यन्ति अतः एव रूपं गमिष्यन्ति गच्छ आगच्छिष्यन्ति न आगमिष्यन्ति किमर्थं धातु अनुसृत्य भवति अस्तु वयं दशवादने गम् धातु अत्र गमिष्यामः अस्तु अग्रे गोपिका भगिनि प्रथमम्
आं भगिनि ते दशवादने कुत्र कुत्र भगिनि
न न अत्र कन्दुकं ते कन्दुकं
अस्तु ते कन्दुकम् आनेष्यन्ति
आनेष्यन्ति सो ई अस्ति चेत् ए भवति आनेष्यन्ति सर्वदा न परन्तु इदानीं मनसि स्थापयतु तावदेव ते कन्दुकम् आनेष्यन्ति वयं
क्रीडाजालं नेष्यामः
नेष्यामः उत्तम आनेष्यन्ति नेष्यामः उत्तम आनेष्यन्ति नेष्यामः अस्तु केतकी भगिनि धन्यवादः भगिनि केतकी भगिनि क्रीडाजालम् इस् द नेट् जालं नेष्यामः वि विल् टेक् दे विल् ब्रिङ्ग् आनेष्यन्ति दे विल् ब्रिङ्ग् नेष्यामः वि विल् टेक् take from here the aneshanti they will bring from wherever they are
krida jalam was a new word that's what
was it is a net thing astu agre ketaki bagini
anganasya swachhata karishyanti
karishya swachhatam swachhatam
karishyanti
uttam
sudha churnena rekha लेखिष्यामः
सो रेखा वा किं सो अत्र स्वच्छताम् इति अस्ति अत्र
रेखां लेखिष्यामः
उत्तमं लेखिष्यामः उत्तमम् अम्ब वदति वा अम्ब अस्ति वा वदति वा अस्तु सिद्धं भवतु अग्रे शारदा भगिनि एकः शारदा भगिनी अस्तु श्रीनिवासन् महोदय न ते इति आरम्भं करोतु सर्वत्र
एकः निर्णायकः निश्चिष्यति निश्चयिष्यति
निश्चयिष्यति उत्तमम् उत्तमं निश्चयति निश्चयिष्यति उत्तमं सो अत्र अपि सो अत्र सब्जेक्ट् कः कर्ता कः
कर्ता ते
ते सो अतः एकः इति रूपमेव तिष्ठति वा किं किं भवति
एकः निश्च
सो अत्र नो नो दिस् इस् फैन् दिस् इस् फैन् दिस् इस् फैन् सो अत्र स्वच्छतां कुर्मः ऐ मीन् स्वच्छतां करिष्यन्ति रेखां लेखिष्यामः सो अत्र ते
निर्णायकं
उत्तमं सो अत्रापि परिवर्तनं भवति एकः इति पदस्य अपि परिवर्तनं भवति
ते एकं निर्णायकं निश्चयिष्यति
निश्चयिष्यन्ति
उत्तमं
बिकास् ते खलु ते बहुवचनं ते
भगिनी एकः प्रश्नः इट् इस् निश्चि शुड् इट् बि निश्चयिष्यति निश्चेष्यति
निश्चयिष्यति वयं वर्तमानकाले कथं वदामः
No, because when we have the E, we put an A, no? So that I'm asking.
Yeah, yeah, I know. Nishchaya tata tata eva bhavati, but that is not a complete rule, Bhagini.
Yes, true. Dhanyavada.
Vayam aparam nirnayakam nishchayishyamaha.
Nishchayishyamaha, uttama.
निश्चयिष्यामः
निश्चयेन That's why this is a very good book. It gives you a lot of practice with different things. Astu. Parameshwar Mahodaya?
Bhagini, ek kshana. Bhagini, can you write it down? Nishcheyashyanti.
Astu. Nishos. Okay, ek nimisham, Bhagini.
Or maybe Nishchayashmaha.
Okay, this one is not working. Ekanimsha. Actually, I just checked the Ashtadhyayi. So it is Nishcheshyanti Eva Bhagini. Nishcheshyanti Eva.
Dhanyavadala Bhagini.
So Atra Ekaha website asti, Ashtadhyayi iti. Aham Pradashyami. अत्र अत्र नास्ति. ऐ सा इट् इन् मै एकनिमिषम्. सो सन्देहः अस्ति अस्ति चेत् डोण्ट् लेट् इट् गो. ओके सो ओ निस्सि न तत्र तत्र नास्ति. ओके ऐ शो
ओके धन्यवादः.
सो अत्र शेष् निश्शेष् निश्शेष्यन्ति तावदेव भगिनि निश्चेष्यन्ति.
धन्यवादः.
सो अत्र ऐ डू इट् इन् दिस् फार्म् नाट् in the Sanskrit form it comes like this nischay. So it depends on the font that people use when they type.
Okay.
Astu
astu bhagini dhanyavada
astu astu. So atra you are right Sagari bhagini. So we have likati लेखिष्यति निश्चित् निश्चि सो द्विका निश्चेष्यति आगे निश्चेष्यति उत्तमम् अस्तु
धन्यवादः भगिनि.
धन्यवादः. शारदा भगिनी अस्तु वाट् शारदा भगिनी वदतु
प्रश्नः.
निश्चेष्यामः शारदा भगिनी प्रश्नः वा
न भगिनी अहं पृच्छामि वाट् यु से फोर् थेङ्क्स् फोर् क्लारिफैङ्ग्
स्पष्टार्थं धन्यवादः.
पुनः वदतु भगिनी.
स्पष्टं करणार्थं धन्यवादः अथवा स्पष्टं धन्यवादः.
धन्यवादः भगिनी.
अस्तु अग्रे परमेश्वर महोदय.
ते एकमत्यम् इति वदन्ति
वदन्ति खलु वदिष्यन्ति
भविष्यन्ति
वदिष्यन्ति
भविष्यन्ति. वयं जयतु जयतु इति उद्घोष्य उद्घोष्यति उद्घोष्यति
वयं खलु. सो वयम् इति वयं
वयं जयतु जयतु इति उद्घोष्यसि
उद्घोषया
उद्घोषयामः
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 उद्घोषयामः. बहु ध्वनिः आगच्छति कुतः इति अहं न जानामि. कृपया सर्वे म्यूट् मध्ये गच्छन्तु. अस्तु शारदा भगिनी पुनः पुनः पृच्छामि सा अस्ति वा नास्ति वा इति. अस्तु सागरि भगिनि अग्रे.
किं भगिनि
प्रथम षष्टिं
प्रथमपर्यायं निराकरिष्यन्ति
निराकरिष्यन्ति
ते सोरि ते प्रथम पर्यायं निराकरिष्यन्ति. वयं अङ्गीकरिष्यामः.
अङ्गीकरिष्यामः, उत्तम. निराकरिष्यन्ति, अङ्गीकरिष्यामः, पर्यायम्. अत्रापि पर्यायं, प्रथमपर्यायं, प्रथमपर्यायं. सो अत्र दोषः अस्ति खलु, मुद्रण इट् शुड् बि प्रथम मुद्रणदोष. भवतु महोदय.
I'm just asking, what does it mean?
Pariyaya means turn. Turn. I want to go first. Pratama pariyaya. So, they did not want to go first. Yeah. They said, we don't want to go first. Nirakritavantaha or nirakarishyanti. Pratama pariyaya. Vayam angi karishyamaha.
सर्वे श्रीनिवासन् महोदयस्य ध्वनि सम्यक् श्रूयते वा? अहम् ऐ एम् नॉट एबल टु हियर हिम टु क्लियरली, सो इज़ इट मी ऑर एवरीवन एल्स?
नो, ऐ केन् हियर हिम वेरी क्लियरली.
ओके, ऐ एम् नॉट एबल टु हियर हिम.
अस्तु,
एवरीवन एल्स इज़ क्लियर. श्रीनिवासन् महोदय, his sound is a bit low.
Yeah, I think he was talking on the mic.
One of the loudest guys.
Loudest. Astu bhavat Uma Krishnan Bhagini.
Kola te kola halam. Is it right, Bhagini?
Jana.
Teti shyanti.
No, atra, this is only a chet. So, oh, jan is the kriyapadam.
Oh, jan, janishyanti?
I think janayishyanti. Janayishyanti.
Janayishyanti.
Chet.
Chet. Shanti.
Vayam.
Vayam, shantihi. Which is raksha, this is the kriya padam.
This is the kriya padam. So this is the kriya padam.
Rakshamaha.
Rakshamaha. Rakshishyamaha. Rakshayati atava rakshati api. Both are okay, Bhagini. Rakshishyamaha atava rakshayishyamaha api samyakeva. Rakshishyamaha. Rakshishyamaha.
धन्यवादः
भगिनी. धन्यवादः. सो अत्र शान्तिम् इति भवति.
ओके ओके.
शान्तिं रक्षि. पुनः पुनः वदतु पूर्णवाक्यं. ते
कोलाहलं जनिष्यन्ति चेत् वयं शान्तिं रक्षिष्यामः.
उत्तमं. जनयिष्यन्ति, जनयिष्यन्ति इति. ते कोलाहलं जनयिष्यन्ति चेत् वयं शान्तिं रक्षिष्यामः. कोलाहलम् इत्युक्ते किम्? अन्रेस्ट् खलु. अन्रेस्ट्, अन्रेस्ट्, अन्रेस्ट्. सो दे आर् मेकिङ्ग् अ गलाटा, दिस् इस् रैट् इन् दट् वन् गलाटा. Janayishyanti means to be born, right? So they start. Sarvani mute karo.
Manufacture.
Mambai. Janayishyanti chet vayam shantim rakshishyamah. Astu. Maintain peace. Rakshishya, we will maintain peace even if they start any galata. Kolahala.
Aham vadami.
Astu, vadatu.
Uttahena.
Te.
Te. Uttahena. Kridishyati.
Kridishyanti. Kridishyanti.
वयं स्पर्धाभावेन वयं स्पर्धाभावेन क्रीडयिष्यति क्रीडयिष्यन्ति
न न ते क्रीडिष्यन्ति वयं
क्रीडिष्यामः
क्रीडिष्यामः सो अत्र अं न आगच्छति किमर्थम् इत्युक्ते कर्मपदं नास्ति खलु कर्मपदं नास्ति कर्मपदं नास्ति एतत् रूपं तृतीयविभक्तिरूपम् उत्साहेन स्पर्धाभावेन अतः द्वितीयविभक्तिरूपं न भवति अत्र धन्यवादः
भगिनी अर्थं किं स्पर्धाभावेन
स्पर्धा मीन्स् काम्पिटिशन्
काम्पिटेटिव् स्पिरिट्
काम्पिटेटिव् स्पिरिट् उत्साहेन एक्सैटेड्लि वित् एक्सैट्मेण्ट् ते उत्साहेन क्रीडिष्यन्ति वयं स्पर्धाभावेन क्रीडिष्यामः क्रीडिष्यामः धन्यवादः अस्तु अग्रे का अस्ति
क्रीडा अहमस्ति भगिनि ते क्रीडानियमा पालयिष्यन्ति
सो अत्र द्वितीयविभक्तिरूपं भवति भगिनि
ते क्रीडानियमं पालयिष्यन्ति
सो क्रीडानियमं अस्ति खलु सो बहुवचनरूपं मान् इति भवति
ते क्रीडानियमान् पालयिष्यन्ति इस् इट् करेक्ट् भगिनि
पालयिष्यन्ति
ते क्रीडानियमां पालयिष्यन्ति वयं क्रीडानियमा पालयिष्यन्तः पालयिष्यामः पालयिष्यामः वयं क्रीडानियमा पालयिष्यामः
क्रीडानियमान् पालयति वयं क्रीडानियमान् पालयिष्यामः अन्यकोपि अस्ति वा अहं सर्वान् पुनः म्यूट् करोमि उक्त्वा म्यूट् मध्ये गच्छतु कृपया अस्तु अन्य कोऽपि अस्ति वा मालति भगिनी म्यूट् मध्ये अस्ति खलु अद्य अस्तु वक्तुम् इच्छति चेत् वदतु अस्तु अन्य कोऽपि नास्ति अस्तु तर्हि
अहं वदामि
अस्तु वदतु
प्रायः पराजयं प्रापयिष्यति
सो अत्र प्राप्स्यन्ति
प्राप्स्यन्ति वयं जीविष्यामः
सो अत्र जेश् इति भवति जेश् ई अस्ति चेत् अय इति भवति जेष्यामः
वयं जेष्यामः
उदाहरणार्थं नी धातु अस्ति सो नेष्यति आनेष्यति अत्र अस्ति वा नास्ति नी धातु आनेष्यति ऐ मीन् नेष्यति अत्रापि आनी आनेष्यति साधारणनियमः सो समटैम्स् अपवादः भवति देर् कुड् बि सम् चेञ्जस् परन्तु लैक् ओवर् हियर् लिक्
लेखिष्यति
निश्च
भगिनी विंशति वाक्य अर्थं किं
किं
प्रायः प्रायः इत्युक्ते
प्रायः मीन्स् प्राबब्लि
प्राबब्लि दे विल् लूस् अण्ड् वी विल् विन् अस्तु भगिनि धन्यवादः
अस्तु
प्रायः मीन्स् प्राबब्लि
प्राबब्लि प्राबब्लि and sometimes you will also see prayashah it means the same prayah prayashah same samana artha padam eva astu prashnaha santi va bhavishyat kala rupe
bagini the third sentence it's anganasya or anganasya dosham asti va anganasya or anganasya anga means it could be body part also or anganasya
part yeah body part it could be any part like we say right kridanganam kridanganam
okay.
anganam eva samyak ide chintayami anganam
anganasya or anganasya
anganasya anganasya so sandeha asti chet tatra pashyama अङ्गणम् अङ्गणम् इत्युक्ते यार्ड् अङ्गणमेव
अङ्गणस्य
स्वच्छता
प्ले ग्रौण्ड्
क्रीडाङ्गणं
क्रीडा एक्साक्ट्लि क्रीडाङ्गणं क्रीड अङ्गणं क्रीडाङ्गणम् अस्तु अग्रिम
भगिनि द मीनिङ्ग् आफ़् दट् सेण्टेन्स् इस् दे आर् गोण्ट् टु क्लीन् द यार्ड् अण्ड् वि आर् गोण्ट् टु पुट् दट् लैन्स् वित्
चूर्णं
सम्थिङ्ग् लैक् दट्
चाक् जनरलि सम्थिङ्ग् वैट् बट् हियर् इट् मीन्स् चाक् सुधा आल्सो मीन्स् मून् सिल्वर् एनिथिङ्ग् दट् इस् वैट् सुधा अस्तु अग्रे गच्छामः अग्रिम अध्याये बहु उत्तमविषयाः सन्ति उत्तमाः विषयाः सन्ति उत्तम अथवा उत्तमविषयाः सन्ति वन् वर्ड् उत्तमविषयाः अथवा उत्तमाः विषयाः सन्ति ते के कति कुतः कथं किमर्थं तः इति अस्तु एकमेकं पठामः गोपिका भगिनी आरम्भं करोति वा
आं भगिनि प्राणेशः चिन्मय नूतनयुतकं किं कति रूप्यकाणि दत्तवान् भवान्
अत्र चिन्मय इति रूपं किं रूपस्य नाम किं
सम्बोधना प्रथमा
सम्बोधना प्रथमा चिन्मयः चिन्मय इति मूलरूपं तदेव सम्बोधनरूपं भवति साधारणतया सर्वदा न साधारणतया सो अत्र वदतु महोदय मिक्स् अण्ड् मैच् वी केन् से हे राम अथवा राम दट् इस् आल्सो ओके बट् हौ डि वि नो सम्बोधना सो अत्र विसर्गः नास्ति अनन्तरं एक्स्क्लेमेशन् अस्ति खलु सो तत् दृष्ट्वा वयं ज्ञातुं शक्नुमः एतत् सम्बोधनरूपम् इति
आश्चर्यचिह्न
आश्चर्यचिह्न सम्यक् महोदय अहं न श्रुतवती इदानीम् उत्तम आश्चर्यचिह्न
भगिनि भोः इति शब्द प्रयोगं कर्तुं शक्यते वा
आमां प्रयोगः
भोः चिन्मय
भोः चिन्मय
भोः केन् बि यूस् फोर् श्रीलिङ्गम् आल्सो
आम् आम्
धन्यवादः
धन्यवादः अस्तु नूतनं युतकं किं सो अत्र किमर्थं नूतनम् इति अस्ति भगिनि
युतकं नपुंसकलिङ्गम् अर्थः विशेषमपि
एवं भवति सम्यक्
नूतनं
अवगच्छन्ति वा सर्वे? युतकं नूतनं शाटिका अति अस्ति अस्ति चेत् कथं भवति भगिनि?
नूतनां शाटिका.
नूतना शाटिका, उत्तम. नूतना शाटिका, नूतनं युतकम्. अस्तु, अन्य उदाहरणं पुल्लिङ्गे. उदाहरणार्थं किं चषकः इति अस्ति,
नूतनः चषकः.
नूतनः चषकः, अस्तु, धन्यवादः. कति कति रूप्यकाणि, धन्यवादः भगिनि. अत्र कति रूप्यकाणि दत्तवान् इति, उदाहरणार्थम् एकमेव रूप्यकम् अस्ति चेत् कथं, प्रश्नः कथं भवति? सर्वदा कति एव, कति एव, अत्र भेदः न भवति. सो कति, कुतः, कथं, किमर्थम् इत्यादीनि पदानि अव्ययानि, परिवर्तनं न भवति. अपि च अन्येकः नियमः अस्ति, कति इति प्रश्नस्य रूपं सर्वदा, अत्र रूपं अग्रे अग्रे स्थितानि पदानां रूपाणि सर्वदा बहुवचनरूपम् एव. कति रूप्यकाणि सन्ति, कति नासिकाः सन्ति, एका नासिका अस्ति, उत्तरे एव तथा भवति. अस्तु, अहं पुनः सर्वाणि म्यूट् करोमि. सो प्लीस् अन्म्यूट् ओन्ली वेन् यु आर् टाकिङ्ग् अण्ड् देन् गो बेक् टु म्यूटिङ्ग्. यदा यदा भवान् अथवा भवती वदति तथा एव अन्म्यूट् करोतु, वदतु, पुनः म्यूट् मध्ये गच्छतु कृपया, नो चेत् बहु ध्वनिः आगच्छति रेकार्डिङ्ग् मध्ये. अस्तु, अग्रिमं केतकी भगिनि.
आं भगिनि. चिन्मयः, अहं षष्टिं रूप्यकाणि दत्तवान्. कथम् अस्ति एतत्?
कथम् अस्ति एतत्? सो अत्र षष्टिं न भवति, षष्टि एव. अहं षष्टि रूप्यकाणि दत्तवान्.
भगिनी, देर् इस् अनुस्वार.
अनुस्वार, तत् मास्तु इति अहं चिन्तयामि. तत् मास्तु.
अहं षष्टि रूप्यकाणि दत्तवान्. कथमस्ति एतत्?
कथम् अस्ति एतत्? अस्तु, सो अत्र किमपि नास्ति. अहं षष्टि रूप्यकाणि दत्तवान्. कथम् अस्ति एतत्? एतत् इत्युक्ते किं सूचयति?
एतत्
हौ इस् दे, सो वाट् इस् यु टाकिङ्ग् अबौट् एतत् इति?
मनि,
युतकं,
युतकं, ओके.
How is this? So means he is showing the yutakam. Katam asti etat iti, yutakam. Yutakam darshayitva katam asti iti prichyati. Chinmayah. Amba, padati va, unmute karatu, vadatu, anantaram mute madhya gachatu. Amba.
Praneshaka. Bahu samyak asti. Kudaha anitavan bhavan.
उत्तमतया पठितवती भवती. धन्यवादः. बहु सम्यक् अस्ति. कुतः आनीतवान्? कुतः इत्युक्ते किम्? आपणस्य
नाम वेर्?
फ्रम् वेर्? फ्रम् वेर्, उत्तमम्. धन्यवादः. शारदा भगिनी,
श्रूयते वा भगिनी?
आम् आं भगिनि.
चिन्मयः, गान्धीनगरे मैत्रीवस्त्रालयः अस्ति ननु, ततः आनीतवान्. एषा लेखनी अपि क्रीता मया.
उत्तमम्. गान्धीनगरे विभक्तिका भगिनि?
सप्तमी विभक्ति.
अहं पुनः पुनः पृच्छामि अतः स्पष्टं भवति. विभक्तिरूपाणि स्पष्टं भवति. गान्धीनगरे सप्तमी विभक्ति. मैत्री वस्त्रालयः अत्र प्रथमा उत्तमं ततः इत्युक्ते
फ्रम् देर् चतुर्थी
चतुर्थी न
पञ्चमी सोरि पञ्चमी
पञ्चमी ततः तत्रतः विल् बिकम् ततः सो इफ् यु रैट् तत्रतः तत् अशुद्धं ततः एव शुद्धम् एवमेव कुत्रतः इति अशुद्धं कुतः एव शुद्धं कुतः ततः इतः वि डोण्ट् से अत अत्रतः विल् बिकम् इतः एषा लेखनी अपि क्रीता मया सो अत्र एतत् वाक्यं कर्मणि प्रयोगे अस्ति लेखनी क्रीता मया लेखनी क्रीता मया सो वाट् आर् द टेल् टेल् सैन्स् कर्मणि इति मया क्रीता लेखनी मया
तव तु प्रत्यय
सो वि हाव् क्रीतवान् आ क्रीतवती दिस् इस् तवतु तवतु प्रत्यय सो वि रिमूव् द वान् पार्ट् वि गेट् क्रीत दट् इस् त प्रत्यय सो अत्र लेखनी इति किमर्थं क्रीता इति अस्ति
लेखनी स्त्रीलिङ्ग
स्त्रीलिङ्ग अतः क्रीता उत्तमं क्रीता क्रीता मया उत्तमं भगिनि धन्यवादः श्रीनिवास महोदय निश्चयेन अण्ड् देन् मोर् इम्पार्टेण्ट्लि द इम्पार्टेन्स् इस् गिवन् टु द कर्म लेखनि कर्म so the kriya padam will go according to the karma so it is karmani that is in seventh that is saptami vibhakti roopam asti so karma padam is karma so the saptami vibhakti of karma is karmani so in karmani it is like this same thing karta the kartru padam right so we have karta so we have kartari in kartari how can we write this in kartari
aham
aham uttam
aham lekani api kritavan
lekanim so it becomes lekani
क्रीतवान्
लेखनीम् अपि क्रीतवान् सो वै डु यु से वान् पास्ट् टेन्स् वै नाट् वति
बिकास् द प्राणेशः द नेम् इस् पुल्लिङ्गम्
पुल्लिङ्ग सो इट् या एक्साक्ट्लि सो द क्रियापदं कर्ता अनुसृत्य अस्ति सो इट् इस् कर्तरि ओके द इम्पार्टेण्ट् इस् गिवन् टु द कर्ता द क्रियापदम् इम्पार्टेन्स् इस् गिवन् टु द कर्ता सो क्रीतवान् बिकास् इट् इस् अहम् अण्ड् अहं बिकास् इट् इस् चिन्मयः इस् सेयिङ्ग् दट् अस्तु अग्रे
भगिनि वन् मोर् थिङ्ग् इन् दिस् वेन् इट् इस् कर्तरि प्रयोगः कर्म always is in dvitiya right
correct
and in karmani prayoga it will be in prathama
yes
so that is one indication how we can find out
yes
is it
yes
nastu kat
dhanyavad astu mahodaya Srinivas mahodaya agre
reading for the praneshah dadatu likami tavat bahu samyak likati कति रूपकाणि कति रूप्यकाणि
अस्तु ददातु लिखामि तावत् लिखामि तावत् इस् अ वेरि केजुवल् वे आफ् सेयिङ्ग् ओके देन् लैक् देट् लेट् मी रैट् देन् लिखामि तावत् बहु सम्यक् लिखति बहु सम्यक् लिखति कति रूप्यकाणि सो वि नाट् इन् हाव् टु से दत्तवान् बिफोर् दे से रूप्यकाणि दत्तवान् कति रूप्यकाणि हौ मच् कति रूप्यकाणि अस्तु पञ्चदश रूप्यकाणि अस्तु अग्रे परमेश्वर महोदय
मूल्यं न अधिकं तदस्तु भवान् वा किमर्थं कक्ष्यां न आगतवान्
अस्तु मूल्यं न अधिकम् अथवा मूल्यम् अधिकं नास्ति किमपि सो अत्र तत् अस्तु सो वि हेव् तत् अस्तु टुगेदर् इट् इस् तदस्तु तदस्तु मीन्स् ओके देन् यु नो लेट्स् मूव् आन् टु सम्थिङ्ग् एल्स् लैक् लेट् इट् बि लैक्
we should not confuse it with tadastu no tadastu
tadastu yeah. so that is different kalo tata astu
okay
oh, different okay
so it's like yata sah uktavan tata astu yata tata
yeah
yata yata tata that is tathastu like that tathastu
तदस्तु
भवान् ह्यः किमर्थं कक्ष्यां न आगतवान् कक्ष्यां न आगतवान् सो अत्र वि केन् एड् अस्ति आर् आसीत् खलु सो हियर् वि केन् एड् आसीत्
वाट् डस् दिस् एक्चुलि मीन् किमर्थं कक्ष्यां न आगतवान्
सो कक्ष्यां मीन्स् वाट् कक्ष्यां कक्ष्या क्लास् वर्गः सो द वर्ड् इस् कक्ष्या कक्ष्यां मीन् द्वितीया विभक्ति कक्ष्यां वै इति द्वितीया विभक्ति बिकास् इट् इस् कमिङ्ग् गमनक्रिया आगतवान् वै डिडन्ट् यु कम् टु क्लास् यस्टर्डे किमर्थं भवान् ह्यः किमर्थं कक्ष्यां न आगतवान्
Why you didn't come
to class yesterday? Astu, agre? Sagari bhagini. Bahu dvani hi astu.
Chinmayaha. Ambalataha agrajaha agatavan asit. Tena saha kar krayanartham aham vipanim gatavan asam.
Uttama. So, atra अम्बालातः अम्बालातः इति अस्ति चेत् पञ्चमी खलु तः तः कुतः अतः इतः सर्वत्र तः इण्डिकेट्स् पञ्चमी विभक्तिरूपं सूचयति अम्बालातः अग्रजः आगतवान् आसीत् अत्र आसीत् इति पदं योजितम् अस्ति आगतवान् आसीत् अग्रजः आगतवान् आसीत्
भगिनी आसीत् न अस्ति चेत् सम्यक् वा
अस्ति चेत् अपि सम्यक् एव उदाहरणम् अत्र पश्यतु कक्ष्यां न आगतवान् मम सो अत्र वयम् अत्र अपि वक्तुं शक्नुमः अम्बालातः अग्रजः आगतवान्
आसीत् लकार अस्ति खलु
आम् आसीत् लकार अस्ति आति स्पष्टं वदति किं किम् अस्ति चेत् पूर्वम् आसीत् इदानीं नास्ति इति
न अवगतं भगिनि
सो अत्र आगतवान् आसीत् इति वयं वदामः चेत् इदानीं न इदानीं सः नास्ति परन्तु सः पूर्वम् आगतवान्
बट् इस् नाट् हियर् एनि मोर् इस् दट् वाट् इट् मीन्स्
लैक् हि हेड् कम् इति वदामः सो दट् इस् द डिफ़्रेण्ट् आसीत् इत्युक्ते हेड् कम्
Asti. But when you just say agavtavan asti means he is still here.
I mean, yeah, we can it is an implied meaning. He has come. That means he is still here. He has come. Agatavan asti. Ityukte adya idanimati saha asti iti indication. Avagatam va?
Ha.
Agatam asti veda. Astu. तेन सह इति रूपं किं तेन सह
तृतीया
सह योगे तृतीया दट् इस् द डेफिनेशन् सः अस्ति चेत् निश्चयेन तृतीया एव तेन सह क्रयणार्थम् अहं विपणिं गतवान् आसम् अत्र क्रयणार्थम् इत्युक्ते क्रयणार्थं क्रेतुम् अपि वक्तुं शक्नुमः तेन सह क्रेतुं क्रीणाय रूपत्रयम् अस्ति क्रीणाय क्रीणार्थं क्रेतुम् अहं विपणिं गतवान् आसम्
क्रयणार्थम् इस् विच् विभक्ति भगिनि
वेल् इट् इण्डिकेट्स् चतुर्थी विभक्ति क्रीणाय
ओ क्रीणाय क्रीणार्थं बोत् चतुर्थी इस्
क्रीणाय साक्षात् चतुर्थी बिकास् इट् शोस् द रूपं परन्तु क्रीणार्थम् इट् इस् षष्ठी बिकास् इट् शोस् द इट् इण्डिकेट्स् फार् द सेक् आफ् इति
विपणिं द्वितीया
विपणिः आपणम् आपणः विपणिः विपणिं गतवान् आसम् ओके विपणिं गतवान्
अगेन् दिस् इस् हेड् गोन्
ऐ हेड् ऐ वास् लैक् ऐ हेड् गोन् फ्रोम् दिस्
ऐ हेड् गोन्
देर् इट् इस् हि हेड् कम् ऐ हेड् गोन्
आपणिं विपणिं बोत् आर् सेम् मीनिङ्ग्
आम् सेम् मीनिङ्ग् आपणं विपणिं सो आपणम् इस् अकारान्तपदं विपणिः इस् इकारान्तपदम्
पुल्लिङ्गम् अधुनि स्त्रीलिङ्गम्
आम् आम् अस्तु अग्रे सागरी अभवत् उमाकृष्णन् भगिनि ध्वनिः आगच्छति कृपया म्यूट् मध्ये पुनः वदामि अथवा अहमेव करोमि अस्तु उमाकृष्णन् भगिनि
प्राणेशः आगतवान् आसीत् किं भवान् तं मम गृहं किमर्थं न आनीतवान्
टिपिकल् क्वश्चन् खलु चिदम्बरः आगतवान् आसीत् किम् आगतम् आसीत् वा भवान् तम् इति पदम् मम नाम मम पुस्तकं मम गृहं षष्टि खलु
षष्टि ओके
या वेन् एवर् दर् इस् सम्बन्ध लैक् मै संथिङ्ग् मै दिस् मै दट् युवर् दट् इस् सम्बन्ध तं मम गृहं किमर्थं न आनीतवान् इत्युक्ते वै डिडन्ट् यु ब्रिङ्ग् हिम् आनीतवान् सो अत्र आसीत् अस्ति किमपि नास्ति परन्तु आनीतवान् आसीत् आनीतवान् अस्तु सविता भगिनि
आं भगिनि चिन्मयः सः रात्रौ एव प्रतिगतवान् अग्रिममासे सः पुनः आगमिष्यति
सः रात्रौ सप्तमी अत्र सप्तमी रात्रौ एव प्रतिगतवान् हि वेण्ट् बेक् अग्रिमे मासे
कमिङ्ग् मन्त्
coming month so we can if we write it together it will be like this. Agrima.
Agrima Mase.
Agrima Mase. So there is no vibhakti here. So atra prithak prithak likamah chet vibhakti avashyakam. Agrime Mase. Athava Agrima Mase.
Agrima Mase.
अग्रिममासे अथवा अग्रिमे मासे सः पुनः आगमिष्यति.
How do we say write it together?
एतत् पदेन योजयित्वा लिखामः चेत्
पुनः वदतु भगिनि.
ओके, एकपदेन इन् 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 वन् वर्ड् लिखामः चेत् एकपदेन लिखामः चेत् अथवा एकपदं भवति अग्रिममासे अथवा अग्रिमे मासे. अस्तु, तदा भवान् तम् अवश्यं मम गृहम् आनयतु. अण्ड् चिन्मया प्राब्लि सर् निश्चयेन आनेष्यामि तावदेव. अस्तु, आनयतु. सो अत्र अन्य विशेषः अस्ति, भविष्यत्काले लोट्लकारः नास्ति. सो वि केनाट् से आनेष्यतु, तत् अशुद्धं. आनयतु एव, भविष्यत्काले अपि आनयतु एव. ओके, अस्तु, प्रश्नः अस्ति वा इतोपि पर्यन्तम्?
You can't order or request in the past.
Only in the present. Tavateva.
Present or future also?
Future, for the future, what I'm saying is, this rupam, it does not take the bhavishyat kala rupam. Supposing I say, agrime, like next year, okay? Agrima varshe, भवान् मम गृहम् आगच्छतु एव, आगमिष्यतु नास्ति. विल् नाट् कम्. देर् इस् नो भविष्यत् काल फार् आज्ञा. देर् इस् नो भविष्यत् काल फार् दिस् टैप् आफ् टु एण्डिङ्ग्. केवलम् आनयतु, आगच्छतु एव, आगमिष्यतु नास्ति, आनेष्यतु नास्ति, आनयतु एव. अस्तु, अत्र किम् अस्ति, सङ्ख्यासु लिङ्गभेदः. अस्तु, लिङ्गभेदः अस्ति. एकतः चत्वारि पर्यन्तम्, एकम् एकः बालकः, एका बालिका, एकं फलम्. सो एतत् प्रथमाविभक्तिरूपं. द्वितीयाविभक्तिरूपं कथं भवति?
एकं बालकम्.
एकं बालकम्, अस्तु. स्त्रीलिङ्गे
एकां बालिकां.
एकां बालिकाम्, अस्तु. नपुंसकलिङ्गे
एकं फलम्.
फलमेव, नपुंसकलिङ्गे लिङ्गभेद रूपभेदः न भवति. प्रथमाविभक्ति द्वितीयाविभक्ति द्वयोः मध्ये रूपभेदः न भवति. अस्तु, अत्र तृतीयाविभक्तिरूपं कथं भवति? एकः बालकः. गच्छामि. अस्तु, एकेन बालकेन सह. एका बालिका.
एकया बालिकया.
एकया बालिकया. अन्यपदं वदामि, युवती इति अस्ति चेत्
एकया युवत्या.
एकया युवत्या सह इति भवति. एवमेव सप्तमी विभक्ति अस्ति खलु, सप्तविभक्तयः सन्ति खलु. अत्र षष्ठी विभक्ति कथं भवति? बालकस्य.
एकस्य बालकस्य
एकस्य बालकस्य तथा भवति इदानीं द्वे इति पदं द्वे एव द्वाभ्याम् इत्येव भवति परन्तु द्वे इति अत्र अत्र पश्यन्तु द्वौ बालकौ द्वे बालके द्वे फले इति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे च वक्तुं शक्यते अथवा शक्नुमः शक्यते इति कर्मणि प्रयोग अस्तु किन्तु तदा क्रियापदं द्विवचनान्तं भवेत् क्रियापदं द्विवचनान्तम् अतना वचनान्तं मीन्स् अन्ते अन्ते द्विवचनं कथं भवति तथा भवतु इति तत्र क्लेशः भवति किञ्चित् भ्रमः भवति कठिनं भवति अतः बालद्वयम् इति प्रयोगः सम्यक् बालद्वयं बालिकाद्वयं फलद्वयं युवतीद्वयम् इति सम्यक् सम्यक् भवति भ्रमः न भवति द्वय शब्दस्य प्रयोगे तु क्रियापदम् एकवचनान्तम् एव भवति बालकद्वयम् अस्ति बालकद्वयं गच्छति भवान् फलद्वयम् आनयतु भवान्
So, dvau, we cannot use, right?
You can use, but what happens is, dvau balakau staha eva. Not asti, not santi. Staha.
Staha, okay.
So, that is a nutana vishayam maastu iti pustake likati.
Okay.
Astu. Balaka dvayam, balika dvayam, phala dvayam. परन्तु अत्र वयं दृष्टवन्तः एकः इति अस्ति चेत् पुल्लिङ्ग एका स्त्रीलिङ्गे एकं नपुंसकलिङ्गे सप्तसु विभक्तसु विभक्तिसु अपि वयं वक्तुं शक्नुमः सप्तमी विभक्ति अस्ति चेत् ग्रामः इन् वन् ग्राम हौ विल् यु से इन् वन् ग्रामः सो किञ्चित् किञ्चित् भेदः भगिनी अत्र एकस्मिन् ग्रामे एकस्मिन् ग्रामे एकस्मिन् नगरे इति भवति सो अत्र प्रथमा विभक्ति एकः द्वितीया एकम् एकेन एकस्मै ऐ गेव् द फ्रूट् टु वन् बाय् एकस्मै बालकाय एकस्मात् आपणात् आपणतः इति भवति एकस्य बालकस्य नाम संथिङ्ग् अस्तु एकस्मिन् नगरे इति भवति एवमेव एका अपि तथा एव भवति एका एकाम् एकया एकस्यै एकस्याः एकस्याः एकस्याम् इति नपुंसकलिङ्गं पुल्लिङ्गवत् एव भवति अस्तु बहु रुचिकरम् अस्ति खलु
सत्यं
सुन्दरं सुन्दरभाषा संस्कृतभाषा अस्तु सो अत्र त्रीणि इति पदं त्रयः तिस्रः त्रीणि इत्येव रूपं त्रयः बालकाः त्रयाः न त्रयः एवमेव तिस्रः एव तिस्राः न तिस्रः बालिकाः त्रीणि फलानि अहं कथं स्मरणे अहं कथं स्मरामि इत्युक्ते तिस्रः सकारः अस्ति अत्र चतस्रः अत्रापि सकारः अस्ति स्त्री अत्रापि सकारः अस्ति तिस्रः चतस्रः स्त्रीलिङ्ग सो तिस्रः चतस्रः स्त्रीलिङ्गे भवति त्रीणि चत्वारि वयं जानीमः नपुंसकलिङ्गपदानि त्रयः चत्वारः अत्र एव किञ्चित् अवधानम् आवश्यकम् त्रयः चत्वारः परन्तु अत्र किम् अस्ति त्रयं सो यदा तत् यथा न यदा न यथा यथा द्वयम् अस्ति तथा त्रयमपि अस्ति सो अत्र वयं बालकत्रयं बालिकात्रयं फलत्रयं फलत्रयम् अस्ति त्रीणि फलानि सन्ति तिस्रः बालिकाः सन्ति परन्तु बालिकात्रयम् अस्ति बालिकात्रयं गायति गच्छति किमपि बालकत्रयं द्वयं वत् एव भवति द्वयं द्वयं वत् एव भवति एवम् एवमेव विह चतुष्टयं चतुष्टयम् इति एकपदम् अस्ति अत्र अपि चत्वारः बालकाः गच्छन्ति बालकचतुष्टयं गच्छति सो अत्र प्रथमं बालक इति पदं भवतु अनन्तरं त्रयं वा द्वयं वा चतुष्टयं वा अवगच्छन्ति वा चत्वारः बालकाः अथवा बालकचतुष्टयम् इत्यपि वक्तुं शक्नुमः वयम् अस्तु अग्रे
द्वयं त्रयं चतुष्टयं देन् वी नोट् गेट् इन् टु द काम्प्लिकेशन् आफ् आल् दट्
या वी डोण्ट् नीड् टु गेट् इन् टु नो
बट् इट् मे नाट् फिट् इन् आल् द टैम्
इट्स् नाट् समटैम्स् इट् इस् दिस् वे समटैम्स् दट् वे सो इट्स् गुड् टु नो ओके अस्तु पञ्च आरभ्य लिङ्गभेदः नास्ति पञ्चबालकाः एवमेव विभक्तिभेदः अपि नास्ति बालकानां पञ्चानां बालकानाम् इति प्रायः भवति परन्तु अत्र नास्ति पञ्चबालकाः एव पञ्चबालकाः ओके पञ्चबालकाः विभक्ति भवति एव अस्तु एवमेव सप्त अष्ट शतम् इत्यादिषु सर्वेषु अपि लिङ्गभेदः नास्ति अस्तु तः पञ्चमी विभक्ति तः अस्ति चेत् पञ्चमी विभक्ति गृहं गृहतः शाला शालातः बालकबालकतः स्वीकरोतु शालातः एवमेव शब्दस्य मूलं मूलपदं मूलपदम् इस् गृह एव नाट् गृहं मूलपदं तः योगे पञ्चमी विभक्तिः भवति आपण आपणतः अस्तु अत्रतः इति अशुद्धम् इतः तत्रतः अशुद्धं ततः कुत्रतः कुतः उपरितः उपरिष्टात् इति अस्ति कथम् इत्यस्य उत्तर ओके अत्र किमपि अस्ति पठामः पञ्चमी विभक्तौ तः इति प्रयोगे अतीव सरलः अतः विभक्तिरूपाणि अत्र न दर्शितानि इट् इस् नाट् गिवन् इति ओके अस्तु तावदेव कथम् इत्यस्य उत्तररूपेण समीचीनम् उत्तमं सुन्दरं सम्यक् अवश्यं मन्दम् उच्चैः शीघ्रम् इत्यादीनि पदानि उपयुज्यन्ते तानि क्रियाविशेषणानि इति उच्यन्ते सो अत्र नामविशेषणम् अस्ति उदाहरणार्थं युतकम् उत्तमम् अस्ति युतकम् उत्तमम् अस्ति शाटिका उत्तमा ओके एवमेव अस्ति एवमेव उत्तमः अपि अस्ति सो विशेषणम् इति वदामः खलु अड्जेक्टिव् विशेषणं युतकम् इति नामपदम् अतः एतानि नामविशेषणानि नामपदस्य वर्णनं करोति अतः नामविशेषणम्। परन्तु एतानि पदानि सा कथं गायति, उत्तमं गायति, सुन्दरं, सम्यक्, अवश्यम् इत्यादीनि क्रियाविशेषणानि, क्रियापदस्य वर्णनं करोति अतः क्रियाविशेषणम्। सो वि हेव् क्रियाविशेषणानि एण्ड् देन् वि हेव् नामविशेषणानि। क्रियाविशेषणानि वयम् अड्वर्ब् इति वदामः खलु, अड्वर्ब्। नामविशेषणानि एड्जेक्टिव् इति वदामः। प्रश्नः अस्ति वा
भगिनि? उत्तमं गायति इस् इट् द शुद्धं? बिकास् गायति लुक्स् लैक् अ फेमिनिस्ट् थिङ्ग्, उत्तमं मुषग नवमुषगलिङ्गं थिङ्ग्।
सो इन् जनरल् तस्य गानं कथम् अस्ति? उत्तमम् अस्ति। परन्तु वि केन् से सा उत्तमतया गायति, सः
उत्तमतया
इट्स् करेक्ट्, इट्स् करेक्ट्, उत्तमं गायति। ऐ हेव् हर्ड् दट् महोदय। सा उत्तमं गायति, सुन्दरं पाठयति, सुन्दरं पठति, सम्यक् एव। परन्तु ऐ हेव् आल्सो सीन् सुन्दरतया लिखति, सुन्दरतया सुन्दरतया चित्रं रचयति, सुन्दरतया गायति, तदपि उत्तममेव। अस्तु, अत्र अन्यप्रश्नः, किमर्थम्? सो अत्र किम् अपि च अर्थं, किमर्थम्? उत्तरं मूलरूपम् अपि च अर्थं, पठनक्रिया पठनार्थं, क्रयणक्रिया क्रयणार्थम्, ओके, लेखनं लेखनार्थं। सो अत्र लेखनम् इति वयं भाववाचकपदम् इति वदामः खलु, भाववाचकपदं, लेखनं लेखन लेखनार्थं, लेखन इति मूलपदं, लेखनार्थं। सो अत्र कथम् एतत् पदम् आगच्छति इति अत्र अस्ति, मूलरूपम् अर्थं, पठनार्थं, क्रयणार्थम् इत्यादि। अस्तु, प्रश्नाः न सन्ति चेत् अभ्यासं प्रति गच्छामः। अस्तु, अस्तु, अत्र त्रयः इति रूपाणि आवश्यकानि। अत्र अधः निर्दिष्टेषु वाक्येषु आवरणे याः सङ्ख्याः सन्ति ताः अक्षरैः लिङ्गं योजयित्वा लिखत, उदाहरणार्थम् एकम् इति सङ्ख्या अस्ति, बालिका अस्ति, सो अतः एका बालिका गच्छति इति रूपं सम्यक्। अस्तु, अग्रे का आरम्भं करोति? गोपिका भगिनी।
आं भगिनि,
सो अहम् एकवारं लिखामि अत्र,
आं भगिनि,
किं किं लिखामि? एकम् एका एका तत् जानीमः वयं,
भगिनि एकक्षणं, ऐ एम कमिंग।
अस्तु भगिनि, सो वि हेव् त्रयः, तिस्रः, त्रीणि, एवमेव चत्वारः, चतस्रः, चत्वारि। अस्तु, इदानीं करोतु भगिनि।
त्रयः बालकाः पाठं पठन्ति।
उत्तमं, त्रयः बालकाः पाठं पठन्ति। अस्तु, केतकी भगिनी नास्ति, अम्ब, अस्तु, अग्रे अम्ब आगच्छतु। इदानीं शारदा भगिनी।
एकं यानं गतम्।
एकं यानं गतम्, अस्तु, श्रीनिवासमहोदय।
आं भगिनि, चत्वारि फलानि लतायां सन्ति.
चत्वारि फलानि लतायां सन्ति. अस्तु, परमेश्वर महोदय. अस्तु, सागरी भगिनी.
तिस्रः बालिकाः क्रीडन्ति.
तिस्रः बालिकाः क्रीडन्ति. अस्तु, सम्यक्. अस्तु, अग्रे उमाकृष्णन् भगिनी.
चतस्रः ओर्
या इट् कुड् बि चतस्रः आल्सो खलु. नो, चतस्रः इट् कर्मकरी कर्मकर्यः.
ओ ओके, बिकास् इट्स् पुल्लिङ्ग् ऐ हेव् टु चत्वारः चत्वारः कर्मकराः कार्यं कुर्वन्ति.
चत्वारः कर्मकराः कार्यं कुर्वन्ति. उत्तमम्. अस्तु, सविता भगिनी. अस्तु अस्तु, अम्बा वा वदतु.
अहं त्रीणि पत्राणि लिखामि.
उत्तमं, त्रीणि पत्राणि लिखामि. अग्रिममपि करोतु.
मम कोशे चत्वारः लेखन्यः सन्ति.
सो लेखन्यः इति लिङ्गं किं?
प्रथम
पुल्लिङ्गं वा स्त्रीलिङ्गं वा?
पुल्लिङ्ग, पुल्लिङ्ग
नास्ति खलु, लेखनी
लेखनी बहुवचन
बहुवचनः
स्त्रीलिङ्गपदं.
स्त्रीलिङ्ग अस्ति चेत् कथं भवति?
लेखन्याः
न, चतस्रः खलु, चतस्रः
चतस्रः
मम कोशे
चतस्राः लेखन्याः सन्ति.
चतस्रः एव, चतस्राः न, चतस्रः
सदस्रः लेखन्यः सन्ति.
अस्तु, सविता, धन्यवादः. सविता भगिनी.
आं भगिनि, एका पिपलिका मन्दं गच्छति.
एका पिपलिका मन्दं गच्छति. अग्रिमं गच्छति. अग्रिमं
बालिकाः तिस्रः बालिकाः अत्र आगतवत्य
आगतवत्यः किम्? उत्तमम्. आगतवत्यः किम्? अस्तु, शारदा भगिनी.
छात्राः
अद्य चत्वारः
छात्राः या त्रयः छात्राः
चत्वारः छात्राः अथवा चतस्रः छात्राः अपि खलु. बिकास् अत्र छात्राः इत्युक्ते पुल्लिङ्गं वा स्त्रीलिङ्गं वा वयं न जानीमः. अतः चत्वारः छात्राः अथवा चतस्रः छात्राः अपि सम्यक् एव. अस्तु, अग्रे गच्छामः. अनुपस्थिताः मीन्स् दे आर् नाट् प्रेसेण्ट्, तत्र नास्ति. उपस्थिताः दे वर् सीटेड्, अनुपस्थिताः दे वर् नाट् सीटेड्, मीनिङ्ग् देवर् नाट् देर्. अस्तु महोदय, पुनः पृच्छतु श्रीनिवास महोदय.
No, no, I missed it. Chatra, Bahu was an also Chatra hai only for shooting.
Chatra hai. Chatra hai, Chatra hai, Chatra hai, Chatra hai eva. Asto, Bahu, Dwani hi aga chati, Kripaya, Sarve, Kut Madhye gachato. Danyavada hai. अस्तु अस्तु अग्रिम अभ्यासः अस्ति अभ्यासः मम गृहे अस्तु उपरितनकोष्टकस्य आधारेण प्रश्नवाक्यम् उत्तरवाक्यं च लिखत प्रश्नः भवतः गृहे कति जनाः सन्ति मम गृहे दश जनाः सन्ति इति अस्ति अस्तु अग्रे गोपिका भगिनी सो अत्र लिङ्गभेदः नास्ति बहु सुलभः अभ्यासः एव सर्वत्र कति अथवा कति प्रश्ने भवति उत्तरे वाक्यं रचनीयं तावदेव अस्तु
आं भगिनि भवतः गृहे कति द्वाराणि सन्ति मम गृहे दशद्वाराणि सन्ति
तावदेव अस्तु केतकी भगिनि
आं भगिनि मम गृहे न भवतः गृहे कति पुस्तकानि सन्ति मम गृहे दश पुस्तकानि सन्ति राइट भगिनी
मेड योर ओन सेंटेंस अस्तु भगिनी उत्तम
गृहे
अस्तु अस्तु शारदा भगिनी
भवती गृहे
भवत्याः
गृहे कति कर्मकराः सन्ति द्वाराणि सन्ति
द्वाराणि अभवत् कर्मकराः एव सम्यक्
कर्मकराः सन्ति मम गृहे चत्वारः कर्मकराः सन्ति
अस्तु सो अत्र संख्या अस्ति किं
पञ्चकर्मकराः सन्ति
पञ्चकराः सन्ति अस्तु शारदा भगिनि श्रीनिवास महोदय
आं भगिनि भवतः गृहे कति चषकाः सन्ति मम गृहे त्रिंशत्तमचषकाः सन्ति
सो अत्र त्रिंशत् एव
तम ओङ्कं
tama will come only if you're saying the 30th cup like that
okay I thought any number which is coming above 1900 says tama that's what I
no okay. only for that purna pratyaya so we say cardinals and ordinals right so
only for the th when it comes
th sc and the and all that yeah very good trimshat chashakaah santi uttama astu agre परमेश्वर महोदय
भवतः गृहे कति लिखनी सन्ति लेखन्यः सन्ति मम गृहे दश लेखन्यः सन्ति
दश एव
दश लेखन्यः सन्ति
दश लेखन्यः सन्ति भवती अपि भवान् अपि स्वस्य वाक्यम् उक्तवान् उत्तम उमा सागरी भगिनी
भवतः गृहे कति वातायनानि सन्ति मम गृहे पञ्च पञ्चविंशतिः वातायनानि सन्ति
उत्तमं वातायनानि पञ्चविंशतिः वातायनानि सन्ति अस्तु उमा कृष्णन् भगिनी विण्डो विण्डो
विण्डो
भवति गृहे
भवत्याः
गृहे कति महिष्यः सन्ति गृहे महिष्यः सन्ति
महिष्यः सन्ति अस्तु सविता भगिनी
आं भगिनि
किं
भवतः
महिष्यः बुल् वा आम् महिषासुरमर्दिनी इति अस्ति खलु बफलो
बफलो
फीमेल् बफलो
अहं धेनवः
वदतु वदतु
भवतः गृहे कति धेनवः सन्ति मम गृहे पञ्चादश धेनवः सन्ति
पञ्चदश एव पञ्चदश अष्टा एव तथा भवति अष्टादश
अप् टु 15 इट् इस् पञ्चदश धेनवः पञ्चदश धेनवः
पञ्चदश धेनवः
सन्ति
सन्ति अस्तु अग्रे किम् अस्ति इति पश्यामः अस्तु अधः समयः अभवत् अस्तु क्षम्यतां समयः अभवत् वयं शान्तिमन्त्रेण पूरयामः ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति 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 हरिः ॐ गुरुभ्यो
गुरुभ्यो नमः हरिः ॐ धन्यवादः भगिनि
भगिनि एकः विषयः अस्ति भाषाविषये